अस्तु, गतवासस्य कक्षायां वयं निच् इत्यस्य आर्धधातुक प्रकरणस्य चिन्तनं तस्य समाप्तिः अभवत्। अधुना कर्मणि भावे च इति विषये आर्धधातुकप्रक्रिया एव अस्ति, यतोहि विकरणं यतोहि अत्र विकरणप्रत्ययस्य प्रसक्तिः नास्ति, किन्तु कर्मण्यर्थे भावार्थे यः प्रत्ययः विधीयते तदपि आर्धधातुकप्रत्ययः अस्ति। अतः अस्माकं चिन्तनम् आर्धधातुकप्रकरणस्य निच् इत्यस्य विषये चिन्तनं यज्जातं तस्यापि किञ्चित् अत्र प्रसक्तिः अस्ति, अतः सुलभं किञ्चित् सौलभ्यमपि अस्ति अधुना। प्रथमतया अत्र कर्मणि अर्थे अथवा भावार्थे इत्युक्ते अत्र अर्थः कः कोऽपि वक्तुं शक्नोति वा? वेङ्कटेश् महोदय।
वदामि, कर्तृर्थे विषयद्वयं भवति धातुभ्यः यदि विधीयते, कर्तृर्थे वा कर्मणि अर्थे। यदि कर्तृर्थे भवति तदा वयं कर्ता प्रथमं भवति, तदनुसारं धातुः। कर्मणि अर्थे यदा भवति तदनुसारं यदा उदाहरणं ददामि चेत् कर्तृर्थे प्रथमा विभक्ति कर्ता भवति, परन्तु कर्मणि अर्थे कर्मार्थे धातुभ्यः विधीयते इति विषयः।
अत्र किञ्चित् सूत्रं नास्ति, किन्तु अत्र उदाहरणार्थम् इत्युक्ते त्रीणि एकम् एकम् एकं द्वे एकम् इति परिचयमस्ति वा?
अस्ति।
यदा अत्र कर्तृर्थे एकं द्वे एकम् इत्यनेन भवान् यदा उक्तम् अत्र कर्तृपदं प्रथमा विभक्तौ अस्ति एकम्, अत्र कर्म द्वि कर्म अत्र विभक्ति द्वितीयविभक्त्यौ अस्ति। अत्र धातुरूपं धातुपदं तिङन्तं पदं कर्तृपदम् अनुसृत्य भवति, कर्तृत्वे एकं द्वे एकम् इत्यस्य तत् परिस्थितिः अस्ति। यदा कर्मण्यर्थे अत्र रूपं किं भवति? त्रीणि एकम् एकं खलु? अत्र त्रीणि इत्युक्ते कस्य कस्य त्रीणि इति?
कर्मणि, कर्मणि विषये, कर्म
कर्तृपदस्य तृतीया विभक्ति खलु?
आम्।
यदा मया कार्यं क्रियते इत्यस्मिन् कर्तृपदम् इति कर्ता अहं, किन्तु तत् विभक्ति अस्ति तृतीया विभक्ति। एकम् अस्ति कर्म, यत् कर्म अभवत् तत् तस्य प्रथमा विभक्ति अस्ति। किन्तु
उदाहरणः अपि भवति, रामः खगं पश्यति, रामेण खगं दृश्यते।
अतः अत्र अत्र धातुरूपं यत् पदमस्ति तिङन्तरूपं तत् कर्म अनुसृत्य भवति कर्मण्यर्थे। त्रीणि एकम् एकम् इत्यस्मिन् यत्र एकम् अस्ति तस्य रूपं कर्मपदम् अनुसृत्य भवति, किन्तु कर्तृत्वे कर्तृपदम् अनुसृत्य तस्य रूपं भवति इति कर्मण्यर्थे। भावार्थे इत्युक्ते कः? सुब्रह्मण्यं महोदय वदतु।
भावार्थ इति अकर्मक धातु अस्ति चेत् तत्र कर्मपदं नास्ति, तस्मात् तस्मात् तृतीय त्रीणि एकम्।
अत्र अत्र कर्मपदं नास्ति, अतः अत्र एकम् इत्युक्ते किम्? अत्र धातुरूपं
धातुरूपं धातुरूपम् अनन्तरं
धातुरूपम् इत्युक्ते क्रियापदम् अस्ति.
क्रियापदं कर्तृपदं तृतीयविभक्ति.
अतः क्रियापदस्य का का गतिः अत्र भावार्थे? यतोहि यत्र सकर्मकधातुः अस्ति, सकर्मक धातुः अस्ति चेत् वयं पूर्वम् उक्तवन्तः यत् क्रियापदं कर्मपदम् अनुसृत्य, इत्युक्ते तस्य पुरुषवचनम् अनुसृत्य भवति क्रियापदं. भावार्थे कर्मपदं नास्ति, अतः क्रियापदस्य का गतिः अत्र? यदा उदाहरणं स्वीकुर्मः, मया स्थीयते अस्ति, स्था धातुः अत्र अकर्मकः अस्ति, मया स्थीयते. अत्र स्थीयते इत्यस्य क्रियापदस्य परिचयः कः? पुरुषः वचनः, पुरुषवचनरूपं किमस्ति? मया तु कर्तृपदस्य तृतीया विभक्तिरूपमस्ति. स्थीयते इति स्थीयते इत्यस्य पुरुषं कस्मिन् पुरुषे, कस्मिन् वचने अस्ति?
एकवचने प्रथमपुरुषे.
हा, प्रथमपुरुषस्य एकवचनं इत्युक्ते यत्र कर्मपदमस्ति तदनुसृत्य क्रियापदं भवति. इत्युक्ते प्रथमपुरुष, पुरुष, मध्यमपुरुष, उत्तमपुरुष, एकवचनं, द्विवचनं, बहुवचनं, सर्वे सर्वाणि रूपाणि अत्र सन्ति. किन्तु यत्र कर्मपदं नास्ति, यत्र अकर्मकः अस्ति, तस्मिन् सन्दर्भे क्रियापदं सर्वदा प्रथमपुरुषस्य एकवचने एव भवति. इति अत्र कर्मण्यर्थे भावार्थे इत्यनयोः भेदः अस्ति. अत्र यत्र यदा मया कार्यं क्रियते इति अस्ति, मया कार्याणि क्रियन्ते इति, अत्र कार्याणि इति पदम् अनुसृत्य बहुवचनरूपमस्ति. किन्तु अत्र मया स्थीयते इत्यस्मिन् सन्दर्भे केवलम् एक प्रथमपुरुषस्य एकवचने अस्ति. अस्तु, अतः अत्र कर्तृत्वे वयं जानीमः यत् विकरणप्रत्ययः आयाति सार्वधातुकप्रत्यये परे. विकरणप्रत्ययं प्रथमं योजयित्वा तस्य निमित्तकम् अङ्गकार्यं सर्वं कृत्वा तदा सन्धिकार्यं सर्वं वयं साधितवन्तः पूर्वं. किन्तु अत्र भावार्थे कर्मण्यर्थे यः प्रत्ययः विधीयते तत् प्रत्ययः आर्धधातुकप्रत्ययः, यक् यक् प्रत्ययः. अत्र सूत्रं किमस्ति महोदय, यशोवर्धनमहोदय? यत्र यक् प्रत्ययः विधीयते भावार्थे कर्मण्यर्थे
सार्वधातुके यक् महोदय.
आम्, सार्वधातुके यक् इत्यस्य अत्र निमित्तं किमस्ति? हा, एकवारं पठतु.
यः तिङ् अथवा कृत् प्रत्ययः धातोः परो वर्तते, स च भाववाची कर्मवाची वा चेत् धातोः यक् प्रत्ययः विधीयते सार्वधातुके यक् इति सूत्रेण. सार्वधातुके यक् धातुभ्यः यक् प्रत्ययो भवति भाववाचे ते कर्मवाचके च सार्वधातुके प्रत्यये परे. सार्वधातुके सप्तम्यन्तं यक् अथमान्तं द्विपदमिदं सूत्रं चिण् भावकर्मणोः इत्यस्मात् भावकर्मणोः इत्यस्य अनुवृत्तिः धातोरेकाचो हलादेः क्रियासमभिहारे यम् इत्यस्मात् धातोः इत्यस्य अधिकारः प्रत्ययः इत्यस्य अधिकारः परश्च इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं धातोः यक् प्रत्ययः परश्च भावकर्मवाचिनि सार्वधातुके. यत्र यत्र महोदय भाववाचक अथवा कर्मवाचक प्रसक्ति कर्मवाचक रूपस्य इच्छा अस्ति, प्रत्ययः सार्वधातुकः अस्ति चेत् धातोः व्यक् प्रत्ययः आगच्छति इति सूत्रं वदति. सार्वधातुक इत्युक्ते तिङ्क्षित्, तिङ्क्षित् सार्वधातुकमस्ति अत्र, यतः अग्रिमसूत्रं वदति तिङ्क्षित् सार्वधातुकं, धातोः परश्च तिङ्क्षित् प्रत्ययः सार्वधातुकम् अस्ति.
अत्र प्रथमचिन्तनवर्गे एव वयं किञ्चित् पुनःस्मरणं कृतम्, एतस्य चर्चा अभवत् यत्र प्रत्ययस्य आर्थधातुकत्वं सार्वधातुकत्वं कथं भवति इति. अत्र यदा महोदयेन उक्तं तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञा भवति, अधुना यत् प्रत्ययस्य यत् प्रत्ययः कीदृशः, न तिङ् न वाशित्, अतः तस्य आर्धधातुकत्वं कथं भवति?
किं महोदय?
यत् प्रत्ययः न तिङ् न वाशित्,
आम्,
अतः आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञा भवति. किन्तु अत्र किञ्चित् सूक्ष्मांशः अस्ति यत्र आर्धधातुकं शेषः इत्यनेन, यतोहि एकवारम् अष्टाध्यायी पुस्तकः पुरतः अस्ति चेत् एकवारं तृतीयाध्यायस्य प्रथमपादस्य पञ्चमसूत्रं 315 गुप्तिभ्यः इति सूत्रमस्ति खलु, पश्यति वा? द्वितीयाध्यायस्य प्रथमपादस्य पञ्चमसूत्रम्, अत्र गुप्तिज्किभ्यः सन् इति प्रत्ययविधायकसूत्रमस्ति यत्र गुप् तिज् तथा कित् धातूनां कृते सन् प्रत्ययः विहितः अस्ति. अधुना सन् प्रत्ययः कीदृशः? सन् प्रत्ययः तिङ् अथवा षित् वा? किन्तु तस्य आर्धधातुकसंज्ञा भवति वा सन् प्रत्ययस्य?
प्रत्ययस्य आर्धधातुकसंज्ञा भवति वा? भवनीयं खलु?
किन्तु न भवति, यतोहि अत्र आर्धधातुकं शेषः इत्यस्य अत्र सूक्ष्मांशः अस्ति. सन् प्रत्ययः आर्धधातुकप्रत्ययः नास्ति, यतोहि स च प्रत्ययः साक्षात् धातोः इत्यस्य अनुवृत्तिः भवति चेदेव, यतोहि अत्र गुप्तिज् किद् अपि धातवः एव, अतः सन् प्रत्ययः अपि धातुतः एव विहितः, तत्तु सत्यं. किन्तु तादृशप्रत्ययः यत्र विधायकसूत्रे साक्षात् धातोः इत्यस्य अनुवृत्ति अस्ति चेदेव अत्र आर्धधातुकविशेषः इत्यनेन प्रत्ययस्य आर्धधातुकत्वं भवति. अत्र यशोधन् महोदय, यदा अत्र भवान् पठितवन्तः लास्ट् पेराग्राफ् अस्ति खलु आर्धधातुकं शेषः इति सूत्रे, एकवारं पठति वा?
आम्, आर्धधातुकं शेषः इति सूत्रे धातोः इत्यस्य अधिकारः द्वयोः सूत्रयोः अनेन च द्विवारं सूत्रे आयाति. फलम् एवं भवति, यः प्रत्ययः धातोः विधीयते अपि च विधायकसूत्रे साक्षात् धातोः इति उच्यते स एव आर्धातुकसंज्ञकः. अनेन तिज् किद्भ्यः सन् इत्यस्मिन् यद्यपि सन् प्रत्ययः धातोः विधीयते तथापि सूत्रे साक्षात् धातोः इति पदं नायाति, इत्यस्मात् सन् प्रत्ययः आधातुकः नास्ति. तदर्थम् आधातुकस्येङ्गवलादेः इत्यस्य प्रसक्तिर्नास्ति, यस्मात् सन् प्रत्ययः यद्यपि वलादिः तथापि तस्य इडागमो न भवति. महोदय, साक्षात् धातोः आगच्छति इति चेत् अनुवृत्तिसहितसूत्रे आगच्छति खलु?
अत्र आर्धधातुकं शेषः इत्यस्य अनुवृत्तिः इत्युक्ते अत्र अधिकारत्रयं भवति, यतोहि सूत्रं तृतीयाध्यायस्य चतुर्थपादे अस्ति, अत्र तृतीयाध्यायस्य प्रथमपादात् आरभ्य प्रथमपादस्य प्रथमसूत्रमस्ति प्रत्ययः, द्वितीयसूत्रमस्ति परश्च. प्रत्ययः परश्च इत्युक्ते अत्र अधिकारसूत्रमस्ति. प्रत्ययः अधिकार अधिकारमस्ति एकम् अनुवृत्तिरूपेण, तत्र परम् अपि अस्ति. धातोः अपि साक्षात् धातोः इत्यस्य अनुवृत्तिः अपि अस्ति. अतः आर्धधातुकं शेषः इत्यनेन स च प्रत्ययः यत्र यः विधीयते साक्षात् धातोः इत्यस्य अनुवृत्तिबलेन, तस्य एव आर्धधातुकत्वं भवति.
केवलम् एकवारमेव आगच्छति धातोः.
हा, अत्र धातोः, किन्तु प्रत्ययस्यापि प्रत्यये विधायकसूत्रे अपि धातोः इति द्विवारम् आगच्छेत्. इत्युक्ते अत्र गुप्तिचिकिभ्यः सन्नित्ययस्य अनुवृत्तिः केवलं प्रत्ययः, अत्र धातोः इति नास्ति.
यतोहि धातोः अनन्तरम् आगच्छति इति वा सूत्रं?
सार्वधातुके यक् इत्यस्य अनुवृत्तिसहितं पश्येम चेत् धातोः यक् प्रत्ययः परश्च. अत्र प्रत्ययः इति अधिकारसूत्रमस्ति, परश्च इति अधिकारसूत्रमस्ति. यतोः यः प्रत्ययः धातुतः विधीयते तत् परः अस्ति. धातोः इति अपि साक्षात् अत्र अनुवृत्तिः अस्ति. अतः यक् प्रत्ययः आर्धधातुकं शेषः इत्यनेन आर्धधातुकत्वं प्राप्नोति.
महोदय, आर्धातुकं शेषः इति सूत्रे धातोः इत्यस्य अनुवृत्तिः कस्मात् सूत्रात् भवति?
कस्मात् सूत्रात्? अत्र तिंशित् सार्वधातुकं पूर्वम् अस्ति यत्र धातुतः विहितः. अत्र धात्वाधिका धातोः इत्यस्य फलमस्ति यत्र तादृशप्रत्ययः यत्र धातुतः विहितः तस्य एव तिंशित् अस्ति चेत् सार्वधातुकमस्ति. अत्र धातोः इत्यस्य अनुवृत्तिः भवेत्, नो चेत् प्रातिपदिकेभ्यः यः प्रत्ययः विधीयते तस्य सार्वधातुकत्वम् आर्धधातुकत्वं तस्यापि भवति, तत्तु न इष्टम्. अतः तिंशित् सार्वधातुकम् इत्यनेन धातोः धात्वाधिकारः अस्ति, तस्य एव अनुवृत्तिः आर्धधातुकं शेषः इत्यस्य. साक्षात् अग्रिमसूत्रमस्ति
अत्र लिखितमस्ति अर्धातुकं शेषः इति सूत्रे द्विवारम् आगच्छति. द्विवारं किमर्थम्?
अर्धातुकं शेषः इत्यस्य द्विवारस्य फलमस्ति. एकवारम् अस्ति यत् धातुतः विहितः स च प्रत्ययः धातुतः विहितः, तस्य एव आर्धधातुकं सार्वधातुकत्वम् आर्धधातुकत्वं तद् एकः अस्ति. द्विवारस्य धातोः इत्यस्य फलमस्ति. तस्य विधायकसूत्रे तादृशप्रत्ययः यः साक्षात् धात्वाधिकः अस्ति इति धातोः इति द्वितीयस्य फलः अस्ति. धातोः इति इत्यस्य एक प्रयोजनम् एकमस्ति यत्र धातुतः विहितः प्रत्ययस्य एव सार्वधातुकत्वं वा आर्धधातुकत्वं वा इत्यस्य चर्चा अस्ति. किन्तु अत्र द्विवारस्य धातोः इति प्रत्ययस्य कृते इत्युक्ते अत्र साक्षात् तत् प्रत्ययः धात्वाधिकारे भवेत्. यदा वयं गुप्तिजिकृद्भ्यः सन् इति यत्र सन् प्रत्ययः विधीयते तस्य धात्वाधिकारे तत् प्रत्ययः धात्वाधिकारे न पठितः.
परन्तु गुप्तिजिकृद्भ्यः सन् इति सूत्रे धातोः इति शब्दस्य अनुवृत्तिः नास्ति खलु?
हा, तस्य धातोः एव
कथं जानीयं यत् प्रत्ययः केवलं धातोः पर आगच्छति सन् प्रत्ययः?
ओ, किन्तु गुप् तिज् किद् धातवः सन्ति खलु?
गुप् तिज् किद् धातवः सन्ति, एवं वा? अस्तु अस्तु।
किन्तु अत्र गुप् तिज् किद्भ्यः सन् इत्यस्य अनुवृत्तिः धातोः अपि अस्ति चेत् तस्य आर्धधातुकसंज्ञा भवति आर्धधातुकं शेषः इत्यनेन। तदा एव धातोः कर्मणः तस्यापि सन् प्रत्ययः अस्ति, किन्तु स च सन् प्रत्ययः णिच् प्रत्ययस्य, णिच् प्रत्ययस्य एकवारं तत् सूत्रं पूर्वं वयं पठितवन्तः। सत्यापपाशरूप वीणातूलश्लोकसेना लोमत्वच वर्मवर्णचूर्ण चुरादिभ्यो णिच् इति सूत्रमस्ति, तृतीयाध्यायस्य प्रथमपादस्य पञ्चविंशति श्लोकमस्ति। अत्रापि अत्र धातोः इत्यस्य अनुवृत्तिः अस्ति, अतः णिच् इत्यस्य आर्धधातुकत्वमपि तस्य बलेन एव, आर्धधातुकं शेषः इत्यस्य बलेन एव भवति। यतोहि चुरा अत्र सत्या इत्यस्मात् आरभ्य चूर्ण इति पर्यन्तं ते सर्वे प्रातिपदिकाः सन्ति, अतः अत्र चर्चा नास्ति। किन्तु यदा सूत्रे धातोः इत्यस्य अनुवृत्तिः नास्ति चेत्, यतोहि चुरादिभ्यो णिच् इत्युक्ते चुरादिगणीयधातवः, धातवः इति अत्र भीतमस्ति, इत्युक्ते अत्र साक्षात् कथनेन लाभः नास्ति। अत्र चुरादिभ्यो णिच् इत्युक्ते चुरादिगणीयधातूनां कृते णिच् प्रत्ययः इत्येव अस्ति। अनुवृत्तिधातोः नास्ति चेत् णिच् प्रत्ययस्य आर्धधातुकत्वम् आर्धधातुकं शेषः इत्यस्य सूत्रबलेन न भवति। अत्र केवलं धातोः इति सूत्रस् इति अधिकारः अस्ति, अनुवृत्तिः अस्ति चेत् इति कारणतः स च णिच् प्रत्ययः यः साक्षात् धात्वाधिकारे पठितः अपि च चुरादिगणीयधातूनां विहितः अस्ति, द्विवारस्य धातोः फलमस्ति। एकः अस्ति यत्र धातुतः विहितः प्रत्ययः, द्वितीयमस्ति साक्षात् धात्वाधिकारे पठितः अनुवृत्तिबलेन, तस्य एव आर्धधातुकं शेषः इत्यस्य बलेन आर्धधातुकत्वं प्राप्नोति इति। अतः अत्र सार्वधातुके यक् इति प्रत्ययविधायकसूत्रमस्ति। अत्र प्रत्ययविधायकसूत्रे साक्षात् धात्वाधिकारे पठितः अस्ति यक् प्रत्ययः, अतः धातुतः विहितः अस्ति, साक्षात् धात्वाधिकारे पठितः अस्ति, अतः आर्धधातुकं शेषः इत्यनेन द्विवारस्य धातोः इति कथनेन स च प्रत्ययस्य आर्धधातुकत्वं भवति, यतोहि यत् प्रत्ययः न ति न वाषेत्। अत्र स्पष्टं वा महोदय? अस्तु, अत्र यक् प्रत्ययस्य किञ्चित्
भगिनी प्रश्नः कः?
यक् प्रत्ययस्य स्वभावः कीदृशः अत्र एकवारं पठति वा? अत्र
सार्वधातुके यक् इति
यत्र यक् प्रत्ययः विधीयते कर्मण्यर्थे भावार्थे तस्य स्वभावः
प्रथमं तु यक् यत्र भावार्थे कर्मणि अर्थे अस्ति चेत् यक् प्रत्ययः विधीयते, धातोः परः आगच्छति यक् प्रत्ययः भावकर्मणि विषये। अनन्तरं यक् यत्र यक् अस्ति तत् हलन्त्यम् इति सूत्रेण अन्तिमवर्णः य इति एव अवशिष्यते।
अस्तु,
प्रथमं तु वयं यदि धातोः स्वीकुर्मः, प्रथमं तु सार्वधातुके यक् इति सूत्रम् आगत्य यक् प्रत्ययः विधीयते, तदनन्तरं य अवशिष्यते। अनन्तरं यदि वयं लट् लकारस्य रूपं स्वीकुर्मः तत्र आत्मनेपदी भूत्वा पदं भवति नन्तरं
तद् तद् अग्रिमे आयाति किन्तु मुख्यांशः अस्ति यत्र प्रत्ययस्य स्वभावः अत्र गुणकार्यं वा वृद्धिकार्यं भवति वा अथवा गुणनिषेधं भवति वा अथवा सम्प्रसारणं भवति वा इत्यस्य निर्णयं केन बलेन भवति
तस्य उत्तरं भवति यक् यक् इति प्रत्ययः कित् अस्ति नवाशित् नीति च इति सूत्रेण गुणकार्यं निषेधः वृद्धिकार्यम् अपि निषेधः भवति
अतः अत्र कित्वात् कित्वात् गुणनिषेधः वृद्धिनिषेधः अन्य कोऽपि प्रयोजनमस्ति वा कित्वात्
कित्वात् गुणनिषेधः वृद्धिनिषेधः तदनन्तरं
महोदय अहं चन्द्रशेखरः अस्मि
नमस्ते महोदय
अत्र दत्तमस्ति खलु अनिदितां हल उपादाया कृति इत्यनेन उपादाभूतस्य नकारस्य अपि लोपः भवति
यत्र तद् एक लाभः अस्ति यत्र कित्वात् अनिदिधातूनां कृते उपधायां स्थितस्य नकारस्य लोपः भवति
अनिदित् इत्युक्ते यस्य
इत्युक्ते यत्र इदित् अस्ति इदितो नुम् धातोः इत्यनेन नकारस्य आगमः भवति किन्तु धातुपाठे औपदेशकधातवः कानिचन सन्ति यत्र उपधाभूतस्य वर्णः नकारः एव अस्ति अतः अत्र तादृशधातूनां कृते अनिदिद्धातवः इति वदामः यतोहि अत् इति धातुः अस्ति चेत् यतोहि कथा धातुः अनिदिद्धातुः इति वक्तुं शक्नुमः यतोहि इद् इत् नास्ति किन्तु तस्य किमपि प्रयोजनं नास्ति अतः अनिदिद्धातुः तादृशधातुः यत्र इदित् नास्ति किन्तु पूर्वम् उपधाभूतस्य स्थितः वर्णः नकारः एव अस्ति अतः इदितोनुम् धातोः इत्यनेन नकारः आगच्छति इदित् विषये किन्तु अनिदित् विषये इत् नास्ति किन्तु नकारः पूर्व उपधायाम् अस्ति तस्मिन् कृते
उदाहरणेन वदतु कृपया एकम् उदाहरणं
उदाहरणम् अहम् अधुना एव पश्यामि भवादिगणे बहवः सन्ति एकवारं महोदय इदित् धातुः अस्ति अत्र यथा भवादिगणस्य मन्थ् मन्थ विलोडने पश्यतु यत्र थकारस्य पूर्वनकारः अस्ति तत् अनिदिद्धातुः अस्ति लुञ्च लुञ्च अपनयने वञ्च गमने तुम्फ् अत्र नकारः इत्युक्ते अनुस्वारस्य तत्र अनुस्वारः अथवा पञ्चमसदस्यः सर्वे वर्गस्य पञ्चमवर्णः यथा नकारः नकारः यकारः तादृश भ्रंस् रञ्ज् इत्युक्ते तुम्प् तुम्प् अतः तादृशधातवः औपदेशिकधातवः यत्र उपधाभूतस्य ये यत् नास्ति किन्तु उपधाभूतस्य वर्णः नकारः अस्ति अतः कित्वात् एकप्रयोजनमस्ति यत्र अनिदिद्धातूनां कृते अत्र उपधाभूतस्य तत् नकारस्य लोपः न भवति इति
इत्युक्ते यद् येषां धातूनां नकारः उपधा अस्ति ते सर्वे अनिदित् इति वक्तुं शक्नुमः वा न वा
हा वक्तुं शक्नुमः अहं धातुपाठम् एक क्षम्यतां महोदय, वदतु।
मन्तयोग यक् मत्य इति भवति किल?
न न न, मन्त इति औपदेशकधातुः अनिदिद्धातुः अस्ति चेत् तस्य नकारस्य लोपः न भवति। तस्य एव भवति। अतः मन्थयोगः यत् योगः ते मथ्यते। हा, चन्द्रशेखर महोदय, एकवारम् अहं धातुपाठं पूर्णतया परिशीलनं कृतवती अनिदिद्धातूनां कृते। अतः मम चिन्तनमस्ति तादृशधातवः सर्वे यत्र उपधाभूतस्य नकारः वर्णः अस्ति चेत् ते सर्वे अनिदिद्धातवः इति। तस्य केटगरैजेशन् पुष्पादीक्षितं महोदयेन कृतम्।
अस्तु, धन्यवादः। कुत्रापि तस्याः धातुपाठे अस्ति वा तत् विषयं?
धातुपाठे एकवारं सर्वे गणीय अनिदिद्धातूनां कृते एकवारं परिशीलनं करोतु। अतः कित्वात् किकिन्ति च इत्यनेन गुणनिषेधः वृद्धिनिषेधः नकारस्य लोपः भवति यत्र अनिदिद्धातूनां कृते। अन्यं किमपि अस्ति? अन्यकार्यं किमपि अस्ति वा?
तथा तृतीयबिन्दुः अस्ति वचिष्वपि यदायनां किति इति। परन्तु अत्र सम्प्रसारणं भवति, परन्तु अत्र ग्रहीज्या वै इत्यादि ङिति च इति तत्र अस्ति, परन्तु तत् कित् नास्ति खलु? किति सूत्रस्य विषये किमपि तत्र कार्यं नास्ति।
हा, अत्र कित् विषये वचस्वपि यजादीनां किति अस्ति, किन्तु ग्रहीज्या वै व्यधि ते ङिति च च इत्यनेन पूर्वस्य कार्यमपि अत्र भवति इति अस्ति, यतोहि साक्षात् अग्रिमसूत्रमस्ति। अतः च इत्यस्य बलेन अत्रापि सम्प्रसारणकार्यं भवति। हा, अत्र सम्प्रसारणं कार्यम् इति तु सुपरिचितकार्यम् एव खलु, अत्र उदाहरणः अपि आयाति। अस्तु, अतः अत्र कर्मण्यर्थे भावार्थे अन्यत् मुख्यांशः अस्ति, तस्य क्रियापदस्य अत्र रूपं किं भवति इति, इत्युक्ते अत्र संज्ञा किं भवति, परस्मैपदिरूपं वा, यतोहि कर्तृवाच्ये परस्मैपदी अस्ति, कानिचन स्थलेषु परस्मैपदिरूपम् अस्ति, आत्मनेपदिरूपमपि अस्ति, किन्तु भावार्थे कर्मण्यर्थे अत्र पदस्य केन संज्ञा, पदस्य संज्ञा किं भवति इति। अत्र बालसुब्रह्मण्यमहोदय, भावकर्मणोः इति एकवारं पठति वा, पठति वा?
भावकर्मणोः विहितस्य लस्य तिब्बादयः आत्मनेपदिनः भवन्ति, भावस्य कर्म च पयो इतरेतरद्वन्द्वो भावकर्मणि पयो भावकर्मणोः। भावकर्मणोः सप्तम्यन्त्रम् एकपदं सूत्रम्, अत्र विषयसप्तमी अनुदात्ताङ्गित आत्मनेपदम् इत्यस्मात् आत्मनेपदम् इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं भावकर्मणोः आत्मनेपदं, सर्वदा भावकर्मण आत्मनेपदे एव सन्ति।
अतः अत्र सर्वे प्रथमपुरुषस्य एकवचनं यथा मया स्थीयते, अत्र ते इति आत्मनेपदी रूपमस्ति प्रथमपुरुषस्य एकवचनं। अस्तु, अत्र अतः पूर्वमेव वयम् अत्र पठितवन्तः यत् सकर्मकधातूनां कृते अत्र कर्मपदमनुसृत्य भवति, पुरुषं पुरुषनिर्णयं तथा तथा वचननिर्णयं, किन्तु अकर्मकधातुना प्रथमपुरुषस्य एकवचने एव भवन्ति. अस्तु, अत्र सार्वधातुकलकाराः कानि सन्ति? अत्र सार्वधातुकलकाराः वयं पूर्वं पठितवन्तः. अत्र अतः सार्वधातुके यक् इत्यनेन केवलं तेषां कृते एव अत्र यक् प्रत्ययः विधीयन्ते. अत्र किञ्चित् अत्र अत्रापि किञ्चित् चर्चा अस्ति, कथं लकारस्य सार्वधातुकत्वं लकारस्थाने ये तिबादयः विधीयन्ते तेषां कृते अत्र सार्वधातुकत्वं कथं भवति, आर्धधातुकत्वं कथं भवति इति. पूर्वमपि प्रथम चिन्तनवर्गस्य चर्चा अपि अभवत्, यतोहि आर्धधातुकं शेषः इति सूत्रस्य साक्षात् अग्रिमसूत्रमस्ति लिट् च लिङ्गासिषि. तेन लिट् च इति सूत्रे 34115 अस्ति लिट् च इति सूत्रम्. अत्र साक्षात् आर्धधातुकत्वम् आर्धधातुकम् इत्यस्य अनुवृत्तिः अस्ति. अतः अत्र लिट् इति विषये साक्षात् आर्धधातुकत्वं विधीयन्ते लिट् आशीर्लिङ्गविषये, लिट् च लिङ्गासिषीति. किन्तु यत्र स्यतासि रु लुटोः, तस्य परिशीलनम् एकवारं कुर्मः. स्यतासि रु लुटोः 3133 अस्ति तृतीयाध्यायस्य प्रथमपादस्य 33 सूत्रमस्ति. हा, स्यतासि लृलुटोः इति सूत्रस्य अनुवृत्तिः धातोः इति साक्षात् दत्तमस्ति. इत्युक्ते स्य प्रत्ययः तास् प्रत्ययः ये प्रत्ययः लुट् लृङ् लुट् विषये विधीयन्ते ते साक्षात् धात्वाधिकारे पठिताः सन्ति. अतः आर्थधातुकं शेषः इति बलेन अत्र स्य तास् इत्यस्य आर्धधातुकत्वं भवति, यतोहि स्य तास् न चित् नवातिङ्. अतः लृङ् लुट् लृङ् लुट् ये लकाराः आर्धधातुकलकाराः इति वयं वदामः. तथा एव च्लीलुङ्गि, च्लीलुङ्गि इति इति सूत्रस्य परिशीलनमपि एकवारं कुर्मः. 3143 अस्ति, तस्यापि अनुवृत्तिः साक्षात् धातोः इति अस्ति. अतः लुङ् लकारः यत्र च्लि प्रत्ययः विधीयन्ते, च्लि प्रत्ययः विधीयते तस्य स च प्रत्ययः अपि साक्षात् धात्वाधिकारे पठितः अस्ति. अतः आर्धधातुकं शेषः इत्यनेन च्लि प्रत्ययः आर्धधातुकत्वं प्राप्नोति. अतः लुङ् अपि आर्धधातुकलकारः. अतः केवलम् आर्धधातुकलकारविषये लिट् च लिङ्गासिषि इति सूत्राभ्यां साक्षात् लकारस्य आर्धधातुकत्वं विधीयन्ते, किन्तु स्यतासि नृलुटोः च्लीलुङ्गि इति सूत्रेण ये प्रत्ययाः विधीयन्ते आर्धधातुकत्वं शेषः इत्यनेन आर्धधातुकत्वं प्राप्नुवन्ति. अतः लट् लोट् लङ् विधिलिङ् ये लकाराः सार्वधातुकलकाराः, यतोहि अत्र तिंशित् सार्वधातुकम् इत्यनेन प्रथमतया सर्वे लकाराः सार्वधातुकलकाराः सन्ति, यतोहि तिप्तस्जि इत्यनेन तिङ्प्रत्ययाः विधीयन्ते लकारस्य स्थाने. किन्तु लिट् च लिङ्गासिषि स्यतासि लृलुटोः च्लीलुङ्गि इत्यनेन लिट् लृट् लृङ् लुट् लुङ् आशीर्लिङ् ये लकाराः आर्धधातुकलकाराः भवन्ति. अतः यक् प्रत्ययः केवलं सार्वधातुक लकारस्य विषये एव भवति.
इत्युक्ते अवशिष्ट लकाराः तु लट् लोट् लिङ् विधि लङ् विधिलिङ्ग् एव वा? तदा
अवशिष्टाः लकाराः आर्धधातुकलकाराः इति
न न भवती उक्तवती स्यतासि लृलुटौ अपि च स्त्रीलुङ्गि अपि च आर्धोत्कं शेषः इत्यस्य लट् लट् आशिष लिट् आशिष्य आशीर्लिङ्ग् एते सर्वे आर्धधातुकं संज्ञा भवति. अवशिष्टलकाराः तु लट् लोट् लङ् विधिलिङ्ग् एव इत्यस्मात् ते सार्वधातुकाः तार्धधातुकलकाराः इति वा.
प्रथमं सर्वे लकाराः सार्वधातुकलकाराः इत्युक्ते
तद् अवगतं मया.
अतः सर्वे लकाराः सार्वधातुकलकाराः किन्तु लिट् च लिङ्गाशिषिस् इत्यनेन साक्षात् लिट् लिङ्ग् विषये आर्धधातुकत्वम् अत्र ध्रियन्ते. यथासील् रूलुटोः च्लीलुङ्गि इत्यनेन अत्र साक्षात् आर्धधातुकत्वं न विधीयन्ते, अत्र केवलं प्रत्ययाः विधीयन्ते य ताश्च्ली इति. किन्तु अत्र धात्वाधिकारे साक्षात् पठितः इति कारणतः आर्धधातुकं शेषः इत्यनेन आर्धधातुकत्वं प्राप्नोति. अतः एतेभ्यां सूत्राभ्यां यत्र आर्धधातुकत्वं साक्षात् विधीयते अथवा आर्धधातुकप्रत्ययः विधीयते ते आर्धधातुकलकाराः भवन्ति. अत्र कोऽपि प्रश्नः अस्ति वा? सुब्रह्मण्यमहोदय, वेङ्कटेशमहोदय, ईश्वरमहोदय. अस्तु, अग्रे सरेम. अतः अत्र सार्वधातुकलकाराणां वयं परिशीलनं कुर्मः. किन्तु अत्र यक् प्रत्ययः आर्धधातुकप्रत्ययः इति अस्ति खलु, अत्र यथा धातुः अस्ति, धातुः योगः धातुः अस्ति, धातुः योगः इत्युक्ते भावार्थे भावकर्मणोः इत्यनेन आत्मनेपदिसंज्ञकातिपादयः भवन्ति. अतः धातुः योगः ते, उदाहरणार्थम् अत्र सार्वधातुके यक् इत्यनेन योगः यक् योगः ते. अधुना किञ्चित् विकरणप्रत्ययस्य प्रसक्तिः अस्ति वा अस्मिन् सन्दर्भे?
विकरणप्रत्ययस्य
नास्ति,
केवलं कर्तृत्वे अस्ति खलु.
कर्तृत्वे अस्ति, अतः अत्र कोऽपि समस्या नास्ति. अतः अत्र आर्धधातुकविषये अत्र केवलं साक्षात् सर्वे गणीय धातूनां कृते चर्चा भवति. पूर्वकर्तृत्वे यदा विकरणप्रत्ययस्य प्रत्ययं वयं विकरणप्रत्ययस्य बलेन अत्र गणविभजनं भवति, किन्तु आर्धधातुकप्रत्ययविषये यथा निच् विषये वयं परिशीलनं कुर्मः अत्र तादृशभेदः नास्ति. अतः अत्र अजन्तधातूनां हलन्तधातूनां कृते चर्चा भवति. सर्वे धातुपाठे ये धातवः सन्ति सर्वेषां कृते एतत् विभजनं भवति, अजन्ताः हलन्ताः. अजन्तधातूनां कृते अपि अत्र आकारान्तः इकारान्तः तादृशविभजनं भवति. हलन्तधातूनां कृते अत्र अनिदिद्धातुः अस्ति वा तादृशविभजनं भवति हलन्तधातूनां कृते. हलन्तेषु अत्र कानिचन धातवः सन्ति यत्र धात्वादेशाः भवन्ति, अतः अत्र सम्प्रसारिणी धातुः अपि मुख्यांशः अस्ति. यतोहि कित् अस्ति चेत् वयं पूर्वं परिशीलितवन्तः यत् वचिस्वपि यजादीनां किति इत्यनेन सम्प्रसारणं कार्यं भवति ग्रहिज्या वै तस्य बलेनापि. अतः अत्र धात्वादेशाः, सम्प्रसारिणधातवः, अनिदिद्धातुः अस्ति चेत् अत्रापि विशेषकार्यमस्ति यत्र नकारस्य लोपः भवति. अवशिष्टा धातवः अत्र अद् उपधाधातुः, इद् उपधाधातुः, उद् उपधाधातुः अस्ति चेत् तस्य कोऽपि महत्त्वं नास्ति, यतोहि अत्र गुणकार्यं भवति वा? इद् उपधा धातुः अस्ति चेत् न भवति, यतोहि अत्र कित्वात् गुणनिषेधः वृद्धिनिषेधः भवति, पुगन्तलघुपथस्य च इत्यस्यापि अत्र कार्यं न भवति। अस्तु, अतः अत्र लट् लोट् लङ् विधिलिङ् विषये प्रथमतया अजन्तधातु धातोः परिशीलनं वयं कुर्मः। यशोधन् महोदय पठति वा एकवारम् आकारान्ताः एजन्ताः च धातवः अत्र कार्यं किं भवति इति?
आम्, अजन्तधातवः आकारान्ताः एजन्ताः च धातवः, अशिति प्रत्यये परे ऐजन्तधातवः आकारान्ताः भवन्ति, यत् प्रत्ययः षित् नास्ति इत्यस्मात् अत्र आदेश उपदेशे अशिति इत्यस्य प्रवर्तनम्। आदेशे उपदेशे शिति महोदय अस्माभिः पूर्वमपि दृष्टम् दृष्टं णिच् प्रत्यये, णिच् प्रकरणे, यतोहि णिच् अपि अशित् प्रत्ययः अस्ति। अतः केवलम् अनुवृत्तिसहितसूत्रं पठामि। अनुच्छितस्य सूत्रम् अस्ति आदेशे उपदेशे शिति, उपदेशे एजन्तस्य धातोः आत्वं न तु शिति, एचः धातोः आत्, एचः धातोः आत् उपदेशे अशिति। नाम उपदेशे यः धातुः एजन्त अस्ति तस्य एचः स्थाने आत् भवति, यत् परः प्रत्ययः शित् नास्ति चेत्। यथा ग्लै ग्ला म्लै म्ला झै ध्या शोषा सोषा वे वा कुछा।
अतः निच् विषये अपि एतत् सूत्रस्य प्रसक्तिः प्राप्तिः अस्ति। अतः अत्र आदेश उपदेशे शिति इत्यस्य सूत्रस्य निमित्तम् अत्र यक् विषये अशित् इत्यनेन भवति खलु, यतोहि यक् प्रत्ययः अशित्। अस्तु, अत्र केवलम् उपदेशावस्थायां यजन्तधातूनां कृते। एकवारं आत् आदेशः भवति चेत् सर्वे एजन्तधातवः इत्युक्ते आकारान्तधातवः भवन्ति। अत्र आकारान्तधातुः अस्ति चेत् अत्र किं भवति?
अहं पठामि वा अग्रे?
पठति वा वेङ्कटेशमहोदय पठति वा आकारान्तानाम् एजन्तानां?
पठामि आकारान्तानाम् एजन्तानां च भावकर्मप्रक्रिया, ये सामान्याः आकारान्त एजन्ताः च धातवः सन्ति तेषां कृते किमपि कार्यं नास्ति, वर्णमेलनम् एव, रूपाणि एवं निर्मीयन्ते। घ्रा पठामि वा अग्रे?
इत्युक्ते अत्र साक्षात् आकारान्तधातूनां कृते अत्र सामान्य आकारान्ताः अत्र कार्यं किमपि नास्ति, केवलं वर्णमेलनं। पठतु महोदय।
यथा घ्रा भावकर्मणो इत्यनेन भावकर्मणो विहितस्य लस्य तिबादयः आत्मनेपदिनः भवन्ति, घ्रा योगः ते सार्वधातुके यक् इत्यनेन कर्मवाचके सार्वधातुके प्रत्यये परे धातुभ्यः यक् प्रत्ययः, ग्रायते घ्रायते घ्रायते इति पदम्, एवमेव ध्यायते ग्लायते ज्ञायते भायते लायते वायते छायते।
अस्तु, अत्र सामान्यकार्यम्
वर्णमेलनम् एव।
उपरितने ये सामान्याः आकारान्ताः एजन्ताः च दातवः इत्युक्ते, सामान्याः आकारान्ताः इत्युक्ते एजन्तदातवः परिवर्तनं कृत्वा आकारः भवति एवं न?
इति नास्ति। हा अत्र सामान्य आकारान्तधातूनां कृते अत्र किञ्चित् विशेषधातवः सन्ति ये आकारान्ताः यथा अग्रिमे आयाति घुमास्था गापा जहाति साम्भली तेषां कृते किञ्चित् भिन्नकार्यमस्ति किन्तु सामान्यकार्यं यत्र एजन्तधातूनां कृते आक्त्वं भूत्वा आकारान्ताः भवन्ति औपदेशिक आकारान्ताः धातवः सर्वेषां कृते केवलं वर्णमेलनमेव सामान्यकार्यम्
उदाहरणार्थं या इति धातु
या धातु
सामान्य या आकारान्तधातु खलु
हा अत्र पठतु महोदय बालसुब्रह्मण्य महोदय एकवारम् अत्र घुमास्था गापा जहाति साम्भली सूत्रम् अत्र किं भवति
घुमास्था गापा जहाति साम्भली घुमास्था गापा हा ओहक सा शो एषां धातूनाम् आकारस्य स्थाने इकारादेशः भवति हलादि कित्नित् आर्धधातुक प्रत्यये परे धातु आदेः शः सः आदेश उपदेशे सिति इत्याभ्यां शो सा गुस्य मास्य स्थास्य गास्य पास्य जहाति च सास्य तेषाम् इतरेतरद्वन्द्वः गुमास्था घापा जहाति सः तेषां गुमास्था घापा जहाति सा कुमास्ता गापा जहातिसां षष्ट्यन्तम् इति सप्त हरिसप्तम्यन्तं द्विपदमिदं सूत्रम् दीङो युङति ङिति इत्यस्मात् ङिति इत्यस्य अनुवृत्तिः अतो लोप इति च इत्यस्मात् आतः इत्यस्य अनुवृत्तिः ईद्यति इत्यस्मात् ईत् इत्यस्य अनुवृत्तिः आर्धधातुके इत्यस्य अधिकारः अङ्गस्य इत्यस्य अधिकारः तस्मात् अनुवृत्तिसहितसूत्रं गुमास्ता गापा जहाति सात् आतः अङ्गस्य ईत् जलि इति अर्धधातुके सो कुमास्ता गापाः इत्यादि आकारान्तधातवः हलादि कित्नित् आर्धधातुकप्रत्ययपरे अन्तिम आकारान्तः ईकारान्तः भवति
अत्र केवलं एतेषां द्वादशधातूनां कृते एव भवति अतः मया दानं दीयते इति भवति खलु उदाहरणार्थं यदा दा धातुः अत्रापि आकारस्य धातूनां कृते ईकारादेशः भवति अत्र ईकारादेशः अत्र अन्तिमवर्णस्य स्थाने एव भवति आकारस्य स्थाने दीयते तथा एव मया गीयते गानं गीयते इति भवति अस्तु एते
अत्र प्रश्नः अस्ति जहाति इति रूपं तु इक्ष्टिपौ धातुनिर्देशे इति इत्यस्मात् आगच्छति वा
जहाति इति इक्ष्टिपौ धातुनिर्देश इत्येन
अस्तु धन्यवादः
अतः अत्र पूर्वं भावकर्मणोः इत्यनेन वयं परिशीलितवन्तः यत्र आत्मनेपदी तिबादयः एव भवन्ति अत्र दत्तमस्ति रिफरेन्स् कृते अस्तु आकारान्तविषये कोऽपि प्रश्नः अस्ति वा नो चेत् इकारान्ताः च धातवः इति चर्चा कुर्मः अस्तु वेङ्कटेशमहोदय एकवारं पठितुमिच्छति वा इकारान्ताः
इकारान्ताः जातः च धातवः यक् प्रत्ययः कित्वात् गुणनिषेधः जियोगः यक् सार्वधातुक आर्धधातुकयोः इत्यनेन गुणादेशः परन्तु निति च इत्यनेन गुणनिषेधः जियोगः यक् जियोगः यक् तत्र अग्रे पठामि वा एतत् सार्वधातुक आर्धधातुकयोः अनुवृत्तिसहितसूत्रमस्ति इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः निति च अनुवृत्तिसहितसूत्रमस्ति निति च इकः गुणवृद्धि न यक् प्रत्ययः यकारादि कृत् सार्वधातुकयोः भिन्नश्च अतः इकारान्तधातूनां दीर्घादेशः भवति यक् प्रत्ययः यकारादि कृत् सार्वधातुकयोः भिन्नश्च अतः इकारस्य दीर्घं भवति यकारादि एतत् सूत्रम् अतः अग्रिमसूत्रमस्ति अचः अङ्गस्य दीर्घः इ अकृत् सार्वधातुक सार्वधातुकयोः इति अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे किन्तु स च प्रत्ययः कृत् सङ्गकः अथवा सार्वधातुकः चेत् न भवति
इत्युक्ते
इत्युक्ते अत्र यकारादिप्रत्ययः कृत् कृत्सङ्गकः कृत्सङ्गकः यदि सार्वधातुकः भवति दीर्घः न भवति यदि सार्वधातुकः सार्वधातुकः चेत् दीर्घः न भवति परन्तु यत्र कृत्सङ्गकः अस्ति तत्र दीर्घः भवति अत्र यक् प्रत्ययः कृत्सङ्गकः अतः इकारः इकारः दीर्घं भवति
न न न यक् यक् प्रत्ययः कृत् प्रत्ययः नास्ति खलु अत्र अकृत् सार्वधातुकयोः इत्युक्ते कृत् न भवेत् सार्वधातुकः अपि न भवेत् तत् नै अकृत् विषये अपि सार्वधातुक हा अकृत् अपि भवेत् असार्वधातुकः अपि भवेत् अत्र यक् प्रत्ययः कृत् प्रत्ययः नास्ति आर्धधातुकप्रत्ययः अस्ति अतः अत्र निमित्तमस्ति यः प्रत्ययः न कृत् न वा सार्वधातुक् अस्ति चेत् अजन्ताङ्ग यकारादि अपि भवेत् अत्र केवलं यकारादिप्रत्ययः अजन्ताङ्गस्य अत्र दीर्घादेशः भवति अत्र
दीर्घः
शत्रुप्रत्ययः शत्रुप्रत्ययः एकः कृत् प्रत्ययः शत्रुशानच् किन्तु अन्ये कृत् प्रत्ययाः सन्ति ये शित् नास्ति किन्तु यकारादि अस्ति इति अहं मन्ये मम
लेबन्तः लेब् अस्ति अस्ति खलु लेब् लेबन्तः यकारः यकारादिप्रत्ययः
यत् प्रत्ययः वा
लेप् 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 इति स्वीकृत्य इति अत्र अस्ति खलु अत्र लेप् इति प्रत्ययः अस्ति
ओ ओ अस्तु हा तादृशप्रत्ययः किन्तु कृत् प्रत्ययः अतः तस्मिन् यथा महोदयेन उक्तम् अत्र यकारादिकृत् प्रत्ययः अस्ति चेत् तस्मिन् सन्दर्भे अपि दीर्घः न भवति केवलं यत्र अकृत् असार्वधातुकयकारादिप्रत्यये परे एव अजन्ताङ्गस्य दीर्घादेशः भवति अत्र आदेशः दीर्घादेशः कुत्र भवति इति अत्र अचश्च इत्यस्मिन् सूत्रे यत्र ह्रस्वत्वम् अथवा दीर्घत्वं प्लुत्वं विधीयन्ते तत् सर्वे केवलम् अच् स्थाने एव भविष्यन्ति इति अतः अत्र दीर्घादेशः दीर्घ ईकारादेशः अच् स्थाने एव भवति अतः अत्र उदाहरणं किमस्ति एकम् उदाहरणं किमस्ति महोदय अत्र
उदाहरणमस्ति अत्र अत्र प्रथमम् उदाहरणं जियोगः यक् तत्र जीय ईकारस्य दीर्घः भवति जीय योगः ते जीयते इति पदम् एवमेव क्षीयते श्रीयते ज्रीयते रीयते पीयते इति
किन्तु अत्र अपवादम् एकमस्ति शिङ् धातु कृते. चन्द्रशेखरमहोदय पठितुमिच्छति वा एकवारं शिङ् धातु?
पठामि. अत्र अपवादः अस्ति अयम् इति तस्य अहम् अनुवृत्तिसहितसूत्रमेव पठामि. शिङ् शिङ्गः अङ्गस्य अयम् इ किङिति इत्युक्ते शिङ् धातोः अङ्गस् शिङ् इति अङ्गस्य अयङ् आदेशः भवति यकारादि प्रत्ययः परे यः यकारादि कित् ङित् प्रत्ययः परे. अत्र ये अयङ् इति अस्ति अयङ् इति ङित् अस्ति अन्ते नकारः अस्ति तदर्थं तद् नकार इत् अस्ति ङित् च इति सूत्रेण. इदानीं तत्तु अनेकाल् अस्ति परन्तु ङित् च इति सूत्रं तु अस्ति ङित् च अन्त्यस्य अलः स्थाने इति अनेकाश्चित् सर्वस्य इति सूत्रं न आयाति.
सूत्रस्य अपवादः भवति.
अपवादः भवति.
अत्र क्रममस्ति यत्र प्रथमतया आदेशः अलुन्त्यस्य इति परिभाषासूत्रेण अत्र अन्तिम अल्वर्णस्य स्थाने भवति. किन्तु अनेकाल्षित् सर्वस्य इति अपवादबलेन अत्र आदेशः अनेकाल् अस्ति चेत् तया सर्वस्य स्थाने भवति. अतः ङित् आदेशः ङित् अस्ति चेत् ङिच्च इति सूत्रम् आयाति अनेकाल्षित् सर्वस्य इति सूत्रं प्रबाध्य ङिच्च इति सूत्रं केवलम्
अन्तिमे.
अतः शीङ् योगः यग् इत्यस्मिन् सन्दर्भे अयम् आदेशः कुत्र भवति भवति रूपं किं भवति अत्र?
षी षी इति अस्ति. षी इत्यस्य स्थाने ईकार अन्तिमे ईकार दीर्घ ईकारस्थाने ऐ इति आदेशः भवति. शै इति भवति. शै योगः य शय्य शय्यते.
अस्तु. अतः इकारान्त इकारान्तानां कृते केवलम् एकैव अपवादसूत्रमस्ति अपवादमस्ति शीङ् धातु कृते. नो चेत् सर्वसामान्यकार्यम् अस्ति यत्र इकारान्तः तु सर्वे दीर्घत्वं प्राप्नुवन्ति कृत्सार्वधातुकयोर्दीर्घः इत्यनेन. साक्षात् ईकारान्तधातु धातवः सन्ति चेत् अत्र कोऽपि किमपि कार्यं नास्ति.
परन्तु तत्र दीर्घः दीर्घस्थाने दीर्घः एव आदेशः भवति तदर्थं किमपि विकल्पः विकरणः नास्ति खलु? तदेव
तदेव रूपम् अस्ति. हा कृत्सार्वधातुकयोर्दीर्घः इत्यनेन अत्र दीर्घादेशः
प्रसक्तिः तु अस्ति परन्तु तत्र रूपं न परिवर्तनं भवति.
अस्तु. अधुना उकारान्ताः उकारान्ताः धातवः अत्र किं भवति? यशोधन् महोदय एकवारं पठितुमिच्छति वा?
उकारान्तः उकारान्ताः धातवः यथा इकारान्तः इकारान्ताः तथैव उकारान्तः उकारान्ताः च. सार्वधातुक आधातुक इत्यनेन गुणादेशः मिति च इत्यनेन गुणनिषेधः कृत् सार्वधातुकयोः योः दीर्घः इत्यनेन दीर्घादेशः नुयोगः यक् नूयते अनेन लटि लोटि लङ्गि विधिलिङ्गि च रूपाणि ज्ञेयानि. एवं हूय् हूयते आहू आहूयते ध्रूयते उकारान्तधातवः अपि तथा यथावत् तिष्ठन्ति. भू भूयते पू भूयते धू भूयते लू लूयते. महोदय एकः अपवादः अस्ति ब्रूधातु ब्रुवो वचिः. ब्रूधातोः स्थाने वच् आदेशः भवति आर्धातुकविवक्षायां. वचिः इत्यस्मिन् इकारः उच्चारणार्थः ब्रुवः षष्ठ्यन्तं वचि प्रथमान्तम् इदमिदं सूत्रम् आर्धातुके इत्यस्य अधिकारः अनुद्धसूत्रं ब्रुवो वचिः आर्धातुके. वच् अनेकाल् इत्यस्मात् पूर्णतया ब्रूस्थाने आदिष्टो भवति. अतः भ्रूयोगः यत् अस्ति भ्रुवो वचिः इति सूत्रेण प्रथमं भ्रूस्थाने वच् आगच्छति, वच् योगः य, तदनन्तरं वचि स्वपि यजादीनां किति इति सूत्रे वच् अस्ति खलु, तस्य सम्प्रसारणं भवति, सम्प्रसारणं भवति अतः वकारस्य स्थाने उकारः आगच्छति, अतः रूपं भवति उच्यते।
अत्र एकोपि क्रम सूत्रमस्ति अत्र वचस्वपि यजादीनां किति इत्यनेन सम्प्रसारणं भूत्वा वकारस्य स्थाने उ आदेशः भवति,
अकारः अपि अस्ति, परन्तु तत् सूत्रस्य अहं सूत्रं तु सूत्रमहं विस्मरामि, परन्तु तत् सूत्रं वदति यत् यदि सम्प्रसारणं भवति तथा यत् सम्प्रसारण क्रियायाः यत् यत् आग यत् ह्रस्वस्वर यत् यत् स्वरः आगच्छति तस्य परः तस्य परे अपि स्वरः अस्ति अस्ति चेत् पूर्वस्वरः एव तिष्ठति,
पूर्वपरयोः पूर्वरूपादेशः
किं महोदय?
सम्प्रसारणाच्च इति सूत्रमस्ति, तेन सम्प्रसारणात् परे यः स्वरः अस्ति पूर्वपरयोः स्थाने पूर्वसम्प्रसारणवर्णः आदेशः भवति।
अतः अकारः केवलम् उकारः एव तिष्ठति,
अत्र उच्यते इति रूपम् अस्ति, समीचीनम्। ओके, अधुना ऋकारान्तरूकारान्तधातवः, अत्र हा ऋकारान्तधातुः अस्ति, अग्रिमे ऋकारान्त धातवः परिशीलयामः, किन्तु अधुना हा सामान्यकार्यं ऋकारान्तधातूनां किमस्ति, अत्र बालसुब्रह्मण्यं महोदय एकवारं वदति वा?
ऋकारान्तधातः सामान्यतया गुणः भवति ऋकारस्थाने आकारः, तदनन्तरम् उरन्तपरः इति सूत्रेण रेपः भवति, तदा एव सामान्य ऋकारान्तदातवः।
पठतु महोदय, अत्र रिंशय द्विंशु इति सूत्रमस्ति।
सामान्य ऋकारान्तानां धातूनां कृते रिङ् सयग्लिङ्क्षु इत्यनेन ऋकारान्तस्य अङ्गस्य रिङ् आदेशः भवति यः प्रत्यये परे। यथा कृ योग यक् सूत्रेण कृ योग रिङ् योग यक् क्रि योग य क्रिय क्रिययोगते क्रियते, एवमेव बृ योगय भू उब् योग ऋङ् योगयत् ब्रीयोगय ब्रिय ब्रियते ब्रियते इति अन्तिमरूपम्। मृ योगय
अत्र रिङ् रिङ् आदेशः कुत्र अभवत् महोदय, कस्मिन् स्थाने रिङ् आदेशः अभवत्?
स्थाने रिङ् आदेशः भवति।
अत्र आदेश अत्र सूत्रं किमस्ति?
रिङ् सयग्लिङ्क्षु
अरस्य स्थाने अभवत्
इति सूत्रेण ऋकारस्य ऋकारान्तस्य अङ्गस्य रिङ् आदेशः भवति, प्रत्यय यक् प्रत्ययः परे अस्ति चेत्।
हा, एकवारं रिंशे द्विंशु इति सूत्रस्य प्रथमपङ्क्त्यानुवृत्तिसहितसूत्रमपि पठतु कृपया।
रिङ् सयक्तिंशु ऋकारान्तस्य अङ्गस्य रिङ् आदेशः भवति ष प्रत्यये यक् प्रत्यये यकारादि आर्धधातुक लिङ् प्रत्यये च परे, सश्च यक् च लिङ् च तेषाम् इतरेतरद्वन्द्वः सयग्निंशः तेषु सयग्निंशु ऋङ् प्रथमान्तं सयग्निंशु सप्तम्यन्तं द्विपदमिदं सूत्रम् अयङ्कि अयङ्गि ङिति इत्यस्मात् ये अकृत्सार्वधातुकसर्वधातुयोः दीर्घः इत्यस्मात् असार्वधातुके ऋङ् ऋतः इत्यस्मात् ऋतः इत्येषाम् अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ऋतः अङ्गस्य ऋङ् इ आर्धधातुके सयग्निंशु
अत्र निमित्तं किमस्ति प्रथमतया
प्रथमतया निमित्तं यक् प्रत्ययपरे निमित्तम् एकं प्रथमनिमित्तं ऋकारान्तस्य अङ्गम् इति चेत् ऋणादेशः भवति
हा ऋकारान्ताङ्गं किन्तु अत्र त्रयं सन्ति अत्र शयक्लिङ्क्षु तदस्ति इ अस्ति असार्वधातुके अस्ति अनुवृत्तिसहितसूत्रं परिशीलयामश्चेत् एकवारम् अत्र ऋङ् आदेशः भवति ऋकारान्तधातूनां कृते किन्तु अत्र परसप् इत्युक्ते निमित्तं किं भवति तत्र अत्र शप्रत्ययः भवेत् शप्रत्ययः एकः निमित्तः अस्ति शयग्लिङ्क्षु अत्र शप्रत्ययः कुत्र भवति कोऽपि
सुदादिगणे
हा तुदादिगणे अत्र तुदादिगणे मृ अस्ति उदाहरणं मृयोगः श योगः ते कुर्मः अत्र किं भवति
म्रियते
म्रियते
म्रियोगः श योगः
शकार अनुबन्धलोप प्रत्ययः अ इति म्रियते
अत्र गुणं भूत्वा म्रियते इति रूपमस्ति
अत्र कर्मणि त्रयवे अपि कर्मणे कर्तरि च समानं रूपं खलु
हा समानरूपमस्ति अत्र अत्र श अस्ति यक् अपि साक्षात् सूत्रे अस्ति श यक् लिङ्क्षु अत्र सन्दर्भमस्ति यक् प्रत्ययः कर्मणि प्रत्ययः किन्तु अत्र लिङ्क्षु असार्वधातुके इ असार्वधातुके लिङ्क्षु तत् सर्वम् एकमस्ति सूत्रस्य पूर्वसूत्रात् इ इत्यस्य अनुवृत्तिः भवति इ असार्वधातुके इत्यस्य अनुवृत्तिः भवति अतः अत्र निमित्तमस्ति तादृशप्रत्ययः यकारादि इ इत्युक्ते यकारादि असार्वधातुके इत्युक्ते आर्धधातुकप्रत्ययः तत् स च प्रत्ययः लिङ्विषये यकारादि आर्धधातुकप्रत्यये परे अत्रापि ऋङ् आदेशः भवति इति
महोदय अत्र लिङ् इत्युक्ते आशीर्लिङ्ग् खलु यतोहि विधिलिङ्ग् तु सार्वधातुक अस्ति
हा आशीर्लिङ्ग्
यत् 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 यः प्रत्ययः आशीर्लिङ्गप्रकरणे यकारादि अस्ति तत्रापि अस्य सूत्रस्य प्रसक्तिः अस्ति
आम् महोदय यतोहि अत्र आर्धातुकत्वं केवलम् आशीर्लिङ्गविषये एव भवति अतः अत्र शविषये यक् विषये यकारादि आर्धातुक आशीर्लिङ्गविषये अत्र सन्दर्भः अस्ति यक् साक्षात् कर्मण्यर्थे अत्र अतः सुब्रह्मण्यं महोदय अत्र ऋङ् आदेशः यथा पूर्वं वयं परिशीलितवन्तः ऋङ् आदेशः केवलम् अन्तिमऋकारस्य स्थाने भवति अत्र नीच इति सूत्रस्य सूत्रमाध्यमेन तत् अवगतं खलु नो चेत् अलोङ्क्यस्य इति परिभाषासूत्रेण प्रथमतया अन्तिमवर्णस्य स्थाने भवति किन्तु अनेकाल्षित् सर्वस्य इत्यनेन पूर्णतया भवति किन्तु आदेशः मित् इति कारणात् मिच्च इति सूत्रेण ऋकारस्य स्थाने एव भवति.
भगिनि, मया यस्मिन् विधि तदन्तस्य तदावल्ग्रहणे तदावल्ग्रहणे इति इदानीम् अनावगतं मया.
अत्र ई रिंशयग्लिंशु इत्यस्मिन् अनुवृत्तिसहितसूत्रं ऋतः अङ्गस्य रिङ् ई असार्वधातुके शयग्लिंशु ई अस्ति. ई इत्युक्ते सप्तमी, परसप्तमी. परसप्तमी इत्युक्ते अत्र सप्तमी विभक्ति. यस्मिन् यस्मिन् विधिः तस्य यः परः अस्ति तस्य निमित्तीकृत्य पूर्वं यः विधिः अस्ति स च परसप्तमी इत्यस्य अल् आदौ अल् ग्रहणं स्वीकुर्मः. यतोहि साक्षात् यकारप्रत्ययः नास्ति, किन्तु यकारादि अत्र यकारः प्रत्ययस्य आदौ भवेत् इति अत्र परिभाषासूत्रमस्ति. यस्मिन् विधि तदादावल्ग्रहणे.
अस्तु, तत्र अयङ्गी कृति इत्यपि तत्रापि
तत्रापि वक्तुं शक्नुमः. सर्वदा यत्र परसप्तमी निमित्तमस्ति अत्र यस्मिन् विधिस्तदादावग्रहणे इति वक्तुं शक्नुमः सामान्यतया.
धन्यवादः.
अस्तु, अत्र रिंशैग्लिंशु इति सामान्यसूत्रमस्ति, किन्तु अत्र द्वौ अपवादौ स्तः. अत्र वेङ्कटेशमहोदय एकवारं पठितुम् इच्छति वा अत्र अपवादः कः इति?
पठामि. अस्य द्वौ अपवादौ संयोगादि ऋकारान्तदातवः गुणोत्तिसंयोगादौ गुणोत्तिसंयोगाद्यौ इत्यनेन ऋकारान्तदातोः आदौ संयोगः अस्ति चेत् धातोः गुणादेशः भवति. ऋकारान्तदातोः आदौ संयोगः अस्ति, तत्र इदानीं गुणादेशः भवति इति वदति. सूत्रं पठामि वा?
हा, सूत्रं पठतु महोदय.
ऋधातोः संयोगादि ऋकारान्तदातोः च अङ्गस्य गुणो भवति यकी परे यकारादि लिनि आर्धधातुकप्रत्यये परे च. अनुवृत्तिसहितसूत्रमस्ति अट्टिसंयोगाद्योः ऋतः अङ्गस्य गुणः यकी इ लिनि असार्वधातुके. अत्र स्मृ यदि वै उदाहरणार्थं स्मृ इति स्वीकुर्मः तत्र संयोगः अस्ति, अतः ऋकादौ आदौ संयोगः अस्ति, अतः तत्र कृष्णऋकारस्य गुणः भवति, अतः स्मर्य इति अङ्गं भवति. अत्र कृष्णऋकारस्य गुणः भवति. किमर्थम् इत्युक्ते कृष्णऋकारादि पूर्वं संयोगः अस्ति, अतः तत्र यदि यक् प्रत्ययः विधीयते तत्र कृष्णऋकारस्य गुणः भवति, स्मर्यते इति रेफः.
इत्युक्ते ऋकारान्तधातुः यस्य आदौ संयोगः अस्ति अत्र स्मृधातुः तदा. किन्तु अत्र अर्ति इति विषयस्य का गतिः? अत्र सूत्रे गुणोर्तिसंयोगाद्योः स्मृधातुः संयोगादि इत्यस्य दृष्टान्तमस्ति. अर्ति इत्युक्ते
ऋधातुः.
अत्र रु इत्यस्य इक्ष्तिप्पौ धातुनिर्देशे इत्यनेन तस्य अर्ति. अतः उदाहरणे अत्र अन्तिम अन्तिम उदाहरणमस्ति रुयोगः यक् अत्र साक्षात् रुधातुः अस्ति
तद् प्रथमं भवेत् खलु
इत्युक्ते प्रथम उदाहरणम् इति वा
किमर्थम् इत्युक्ते तत्र गुणः अर्थिसंयोगाद्यौ इति अस्ति रुधातोः एव प्रथम तत्र प्रथमे अस्ति सूत्रे अपि
प्रथम अस्तु हा अतः रुयोगः यत् इत्यस्मिन् सन्दर्भे रु इत्यस्यापि गुणं भूत्वा ऋकारस्य तद् वयं जानीमः ऋकारस्य गुण रूपमस्ति ऋकारस्य आगमनं भवति अतः उरण्ड्रपरः इत्यनेन अर् इति गुणरूपमस्ति ऋकारस्य अस्तु तद्
एकं तृतीयं तु किमर्थं हू वा इति अस्ति
तत् धातुः कुत्र अस्ति इति
ऋकारः एव नास्ति अत्र अहं न जानामि मुद्रणदोषं वा किम् किम् इति
ऋकारः अस्ति हृ इति अस्ति खलु हकारः वकारः ऋकारः अत्र रु अधोभागे ऋकारः अस्ति
न न तृतीयम् उदाहरणं पश्यतु
हा तदेव अहं
तत्र अस्ति कृष्णऋकारः अस्ति तत् पूर्वं संयोगः अस्ति
हकारः ऋकारः अस्ति ऋकारः अपि अस्ति किन्तु अहं न जानामि तत् तत् कुत्र अस्ति तद्धातुः एकवारं तदपि परिशीलनीयः धातुः ह्वर्यते इत्युक्ते ह्वर्यते कोऽपि अत्र तस्य अर्थः कः इति जानाति वा ह्वर्यते एकवारं पश्यामि अस्तु अतः अत्र सामान्यरूपमस्ति गुणकार्यं सामान्य इति न केवलं गुणोत्संयोगाद्योः इत्यनेन गुणकार्यं भवति नो चेत् सामान्यकार्यमस्ति लिङ्गादेशः एकोपि अपवादः अस्ति जागृधातुः चन्द्रशेखरमहोदय पठितुमिच्छति वा जागृधातुः
जाग्रो विचिन्नलिङ्सु लिङ्सु इत्यनेन किति प्रत्यय परेपि गुणः जागृधातोः पुनः भवति वि चिन् नळ् ङित् इत्येतेषां प्रत्ययां पर्युदासे अनुवृत्तिसहितसूत्रमस्ति जाग्रः गुणः अविचिन्नलिङ्सु तत्र जागृ योगः यक् जागर् योगः यक्कारः जागर्य जागर्यते अत्र जागृ इति धातु तस्य यत् जागृ इति धातु कृते एव एतत् सूत्रमस्ति
साधारणतया किं भवेत् अत्र यक् कित् अस्ति अतः अत्र भवेत् साधारणतया तद् एव कार्यमस्ति खलु किम् इति च इत्यनेन
गुणोर्थि आमां सत्यं साधारणतया जाग्र इति रिङ्ग्स् लैक् लिङ्ग्सु इति सूत्रम् आगच्छति खलु
रिङ्ग्स् लैक् लिङ्ग्सु इति प्रथमं तत् क्रमं पुनः परिशीलयामश्चेत् प्रथमतया अत्र सार्वधातुकार्धधातुकयोः इत्यनेन
गुणः भवेत्
किन्तु किम् इति च इत्यनेन गुणविषयग्लिङ्क्षु इत्यनेन रिङ्गादेशः किन्तु तत् प्रबाध्य अत्र जाग्रो अविच्छिन्नन् गिच् इत्यनेन गुण आदेशः. किन्तु अत्र निमित्तं किमस्ति?
विचिन्नल् ङित् इत्येतेषां प्रत्ययानां अत्र
अत्र अविच्छिन्नल् ङित्स् अस्ति.
अस्तु, अविच्छिन्न एतस्य प्रत्ययं पर्युदासे. पर्युदासे इत्युक्ते?
पर्युदासे इत्युक्ते वर्जयित्वा.
अस्तु, एते प्रत्ययः नास्ति तदर्थं.
अतः यक् प्रत्ययः न तु छिन् न वा निल् न ङित्. अत्र वि वि अपि यत् अवकारः एव अवशिष्यते. ते सर्वे अस्ति चेत् अत्र पूर्वं वयं परिशीलितवन्तः लुङ् विषये अत्र जागृयोगः छिण् इत्यस्मिन् सन्दर्भे किं भवति इति. किन्तु अत्र जागृवचिन् नङ्च् इत्यनेन तान् सर्वे तान् सर्वान् वर्जयित्वा यत्र प्रत्ययः अस्ति तस्मिन् सन्दर्भे गुणः एव भवति. अतः अत्र जागर् लुङ् विषये अत्र अजागारि इति भवति. अत्र वृद्धिकार्यमस्ति, सूत्रं भिन्नमस्ति. किन्तु अत्र छिन् अस्ति. छिन् विषये जागृधातोः अत्र दीर्घादेशः भवति. किन्तु अत्र छिन् नास्ति, अतः गुणकार्यमेव भवति. अतः जागर्यते इति.
वि इत्युक्ते वलादिप्रत्ययः, वकाराधिपत्यः वा?
अत्र वि इति किञ्चित् वकारादिप्रत्ययः. एकवारं अत्र वि इत्यस्मिन् व्याख्याकारः एकः वदति यत्र वि इत्यस्मिन् इकारः केवलम् उच्चारणार्थम् अस्ति इति. अतः वि इत्युक्ते क्वस् क्वस् इति धा इति प्रत्ययः अपि क्वस् इति प्रत्ययः अपि स्वीकुर्मः. किन्तु न जानामि अन्ये के वकारादिप्रत्ययाः सन्ति इति.
चिन्ता मास्तु, तत्र परन्तु व्यकारादिप्रत्ययः खलु, वकारादौ गुणः न. अस्तु,
यतोहि अत्र जागृयोगः क्वस् इति स्वीकुर्मश्चेत् अत्रापि किञ्चित् द्वित्वकार्यं तत् सर्वं भूत्वा अत्रापि वस् इति एव अस्ति. अस्तु, वकारादिप्रत्ययः इति समीचीनम् अहं मन्ये.
अस्तु, धन्यवादः.
अस्तु, अधुना अग्रे सरेम रूकार समयं गतः. अतः अग्रिमे सप्ताहे पुनः रूकारान्तधातूनां कृते चर्चा आरम्भं कुर्मः इति अहं मन्ये.
समीचीनं
वा?
धन्यवादः.
धन्यवादः. धन्यवादः.